अथ गजेन्द्र कृत भगवंस्तवनम् गजेन्द्र मोक्षं च।
ॐ नमो भगवते तस्मै यत् एतत् चिदात्मकम् पुरुषायादिबीजाय परेशायाभिधीमहि यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् यो अस्मात् परस्माच्च परस्तं प्रपद्ये स्वयं भुवम्।
यः स्वात्मनीदं निजमाययार्पितं क्वचित् विभातं क्वच तत्तिरोहितम् अविद्धदृक्साक्षुभयं तदीक्षते स आत्ममूलो वतु मां परात्परः। कालेन पञ्चत्वमितेषु कृत्स्नशो लोकेषु पालेषु च सर्वहेतुषु तमस्तदासीद् गहनं गभीरं यस्तस्य पारेऽभिविराजते विभु न यस्य देवार्षय पदं विदुर् जन्तुः पुनः कोऽर्हति गन्तुमीरितु यथा नटस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणः समावतु। दिग्दृक्षवो यस्य पदं सुमङ्गलम् विमुक्तसङ्गामुनयः सुसाधवः चरन्त्यलोकव्रतमव्रणं वने भूतात्मभूताः सुहृदः स मे गतिः न वेद्यते यस्य न च जन्म कर्म वा न नामरूपे गुणदोष एव वा तथापि लोकाप्ययसम्भवायः स्वमायया तान्यनुकालमृच्छति।
तस्मै नमः परेशाय ब्रह्मणे दन्तशक्तये अरूपायोरुरूपाय नमः आश्चर्यकर्मणे नमः आत्मप्रदीपाय साक्षिणे परमात्मने नमो गिरां विदुराय मनसश्चेतसामपि। सत्त्वेन प्रतिलभ्याय नैष्कर्मेण विपश्चिता नमः कैवल्यनाथाय निर्वाणसुखसंविदे नमः शान्ताय घोराय मूढाय गुणधर्मिणे निर्विशेषाय साम्याय नमो जानघनाय च
क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे पुरुषाय आत्ममूलाय मूल प्रकृतये नमः सर्वेन्द्रिय गुणद्रष्टे सर्व प्रत्यय हेतवे असत आच्छाय योक्ताय सदा भासाय ते नमः नमो नमस्ते खिल कारणाय निष्कारणायाद्भुत कारणाय सर्वांग मामनाय महार्णवाय नमो पवर्गाय परायणाय गुणारणिच्छन्न चिदूष्मपाय शोभ विस्फूर्जित मानसाय नैष्कर्म्य भावेन विवर्जितागम स्वयं प्रकाशाय नमस्करोमि माद्रिक प्रपन्न पशुपाश विमोक्षणाय ताय भूरि करुणाय नमो लयाय स्वांशेन सर्वतनु भृन्मनसि प्रतीत प्रत्यग्दृशे भगवते बृहते नमस्ते आत्मात्मजाप्त गृह वित्त जनेषु सक्ते दुष्प्रापणाय गुणसंग विवर्जिताय आत्मभिस्वहृदये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय यम धर्म कामार्थ विमुक्ति कामा भजन्त इष्टां गतिमाप्नुवन्ति किं त्वा शिशोराद्यपि देहमव्यम् करोतु मेदभ्रदयो विमोक्षणम् एकांतिनो यस्य न कञ्चनार्थं वाञ्छन्ति ये वै भगवत् प्रपन्नाः अत्यद्भुतं तत् चरितं सुमंगलम् गायन्त आनन्द समुद्रमग्ना तमक्षरं ब्रह्म परं परेशं अव्यक्तमाध्यात्मिक योगगम्यं अतीन्द्रियं सूक्ष्ममिवाति दूरं अनन्तमाद्यं परिपूर्णमीडे
यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचरा नाम रूप विभेदेन फलव्याच कलया कृता यथार्चिशोग्ने सवितुर्गभस्तयो निर्यान्ति संयान्ति असकृत् स्वरोचिषः तथा यतोऽयं गुणसंप्रवाहो बुद्धिर्मनः खानि शरीर सर्गाः स स वै न दैवासुरमर्त्यतिर्यं न स्त्री न षण्ढो न पुमान् न जन्तु नायं गुणः कर्म न सन् न चासन् निषेधशेषो जयता दशेष जिजीविषे नाहमिहामुया किम् अन्तर्बहिश्चावृतये भयोन्या इच्छामि काले ननयस्य विप्लव तस्यात्मलोकावरणस्य मोक्षम् सोहं विश्वसृजं विश्वम् अविश्वं विश्ववेदसं विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदम् योगरन्धितकर्माणो हृदि योगविभाविते योगिनो यं प्रपश्यन्ते योगेशं तम् न तोऽस्म्यहम् नमो नमस्तुभ्यमसहय्य वेगं शक्तित्रयायाखिलधिगुणाय प्रपन्न पालाय दुरन्तशक्तये कदिन्द्रियाणामनवाप्यवर्त्मने नायं वेद स्वमात्मानं यच्छक्त्याहं धियाहतम् तं दुरत्ययमाहात्म्यं भगवन्तमितोऽस्म्यहम्
एवं गजेन्द्रमुपवर्णितनिर्विशेषं ब्रह्मादयो विविधलिङ्गभिदाभिमानाः नैते यदोपससृपुर्निखिलात्मकत्वा तत्राखिलामरमयो हरिराविरासि तन्तद्वदार्थमुपलभ्य जगन्निवासः स्तोत्रं निशम्य दिविजैः सह संस्तुवद्भिः छन्दोमयेन गरुडेन समुह्यमानः चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्रः सोऽन्तः सरस्युरुबलेन गृहीतार्तो दृष्ट्वा गरुत्मतिं हरिं ख उपात्तचक्रम् क्षिप्य साम्बुजकरं गिरिमाः कृच्छ्रात् नारायणाखिल गुरो भगवन् नमस्ते तं वीक्ष्य पीडितमजः सहसावतीर्य सग्राहमाशु सरस कृपयोजहार ग्राहात् विपाटितमुखा धरिणा गजेन्द्रम् सम्पश्यतां हरिरमो मुच दुस्त्रियाणाम्।